इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। आगामि सप्ताहे लोकसभायां राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य 50-उत्तर-100तम वर्षपूर्तौ निर्वाचन परिष्कारस्य च विषये विशेष चर्चा भविष्यति। संसदीय कार्याणां मन्त्री किरेन रिजिजुः संसद भवने पत्रकारैः सह संवादं कुर्वन् उक्तवान् यत् लोकसभा अध्यक्षस्य ओम बिरला इत्यस्य अध्यक्षतायां सर्वदलीय सभायां निर्णयः कृतः यत् लोकसभायां डिसेम्बर मासस्य 8 दिनांके वन्दे मातरम् इत्यस्योपरि चर्चा भविष्यति, अथ 9-10 दिनांकेषु निर्वाचन परिष्कार विषये 10 घण्टानां यावत् चर्चा भविष्यति। किरेन रिजिजुः अवदत् यत् प्रजातन्त्रस्य कृते निर्वाचन प्रक्रिया अत्यन्तं महत्वपूर्णा अस्ति।
मीटिंग अच्छी तरह से हुई है और सहमति हो पाया है कि मंडे को लोकसभा में वंदे मातरम के 150 साल पूरे होने पर हम विशेष चर्चा करेंगे। उसके बाद मंगलवार को लोकसभा में इलेक्शन रिफॉर्म्स को लेकर के हम दिन भर चर्चा करेंगे। मैं सब पार्टी के नेताओं को फिर से अपील करना चाहता हूं। हम सब चाहते हैं कि पार्लियामेंट हाउस अच्छी तरह से चले।
राष्ट्रपति द्रौपदी मुर्मूः अद्य अपराह्ने नौसेनायाः परिचालन प्रदर्शने मुख्य अतिथिरूपेण भागं गृहीतुं केरलस्य तिरुवनन्तपुरं गमिष्यति। परिचालन प्रदर्शने नौसेना स्वसामर्थ्यं युद्धसज्जताञ्च प्रकाशयिष्यति, यत्र 21 प्रमुखाः युद्धपोताः 32 विमानाः च सन्ति। प्रधानमन्त्री श्रीनरेन्द्रमोदी ह्यः प्रधानमन्त्री कार्यालयस्य नाम सेवातीर्थ इति परिवर्तितवान्। सामाजिक अन्तर्जालीय सन्देशे गृहमन्त्री अमितशाहः राजभवनस्य राजनिवासस्य च नाम लोकभवनं लोकनिवासः इति परिवर्तनं क्रियते इति घोषितवान्। सः अवदत् यदेतत् विकसितस्य श्रेष्ठभारतस्य निर्माणाय महत्वपूर्णं सोपानं वर्तते। केन्द्रीय संचार मन्त्री ज्योतिरादित्य सिंधिया उक्तवान् यत् संचार साथी एप पूर्णतया लोकतान्त्रिकः वर्तते। सामाजिक माध्यम सन्देशे सिंधिया महोदयेन उक्तं यत् देशस्य प्रत्येकस्य नागरिकस्य डिजिटल सुरक्षा एव सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। सः व्याख्यातवान् यत् उपयोक्तारः स्वस्य सौविध्यानुसारं एप इत्यस्य अनुप्रयोगस्य डाउनलोड इति अवतरणं कृत्वा अस्य लाभं प्राप्तुं शक्नुवन्ति। शिक्षामन्त्री धर्मेन्द्र प्रधानः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः च ह्यः वाराणसीनगरे 4th काशी तमिल संगमस्य उद्घाटनं कृतवन्तौ। तमिलनाडुतः 400-1,000+ प्रतिनिधयः अस्मिन् कार्यक्रमे भागं गृह्णन्ति। तन्मध्ये मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् राज्यसर्वकारेण व्यावसायिकशिक्षायां तमिळु कन्नड मलयालम तेलुगु मराठी बांग्ला इत्यादीनां भाषाणां समावेशः कृतः। मुख्यमन्त्री उक्तवान् यत् छात्राः स्वरुच्यनुसारं एतासु भाषासु एकां भाषां चिन्वन्ति, तस्य सम्पूर्णं व्ययं सर्वकारः एव करोति। भारतं चक्रवात प्रभावित श्रीलंकादेशाय ऑपरेशन सागरबन्धु इत्यस्य अन्तर्गतं सहायतां प्रयच्छति। श्रीलंकादेशः विनाशकारि जलप्रलयेन विनाशेन प्राणानां सम्पत्तीनाञ्च नष्टेन व्यापक भूस्खलनेन च ग्रस्तः वर्तते। अस्यां राष्ट्रिय आपदि मृतानां संख्या 64-400 यावत् अभवत्। भारत दक्षिण आफ्रिकायोः मध्ये एकदिवसीय क्रीडात्रय श्रृंखलायाः द्वितीया क्रिकेट क्रीडा प्रतियोगिता अद्य रायपुरनगरे भविष्यति। इयं क्रीडाद्वन्द्वं भारतीय कालमानानुसारं अपराह्ने 12:30 आरप्स्यते। भारतं श्रृंखलायां 1-2 विजित्य 1-0 इति अन्तरालेन अग्रे वर्तते। इति वार्ताः।